प्रथमं तावत् मङ्गलाचरणश्लोकः ॐ गुणातीतोऽपीशः त्रिगुणसचिवस्थक्षरमय त्रिमूर्तिर्यःसर्गस्थितिविलयकर्माणि तनुते कृपापारावार परमगति एकस्त्री जगतां नमस्तस्मै कस्मै चिदमितमहिम्ने कुरविते। अस्तु, तर्हि गतवर्गे यत् आलोचितं तस्य विषये किञ्चिदिव पुनर्स्मरणरूपेण पश्यामः। तत्र तमोवादः अस्माभिः दृष्टः, तत्र तमसः दशमद्रव्यत्वं यत् निरस्तं नैयायिकमतानुसारेण, तत्र मीमांसकः शङ्कते, मीमांसकस्य चिन्तनमस्ति तमसः, तमः दशमं द्रव्यम् इति मीमांसकानां चिन्तनं, परन्तु सयुक्तिकं तत्र नैयायिकः तत् मतस्य निराकरणं करोति। तर्हि तमः न दशमद्रव्यम् इति नैयायिकानां तत्र निर्णयः। तदेव तत्र ग्रन्थेषु तमोवादः इति उच्यते, तमोवादः, अभाववादः, तमोवादः, समवायवादः, एवं तत्र ग्रन्थस्य प्रवृत्तिः भवति। तदनन्तरम् अस्माभिः तत्र इदानीं किञ्चिदिव लक्षणस्य आलोचनं कृतं, नाम तत्र द्रव्यस्य उद्देश अस्माभिः दृष्टः, द्रव्याणि पृथिव्यक्तेजो बाह्य आकाशकालतिगात्ममनांसि नवैव इति द्रव्य उद्देशग्रन्थः। उद्देशः अस्माभिः पूर्वं दृष्टं, तत्र नाम भेयेन वस्तुसङ्कीर्तनम् उद्देशः, तर्हि तत् उद्देशः द्रव्याणां कृतम्। इदानीं तत्र उद्देशलक्षणं परीक्षा त्रिविधा अस्य शास्त्रस्य प्रवृत्तिः इति वात्स्यायनः यद् वदति तदनुगुणमेव इदानीं उद्देशकथनानन्तरं तत्र लक्षणकथनं भवति। तदेव अत्र कृतं, द्रव्यत्वजातिमत्वं गुणवत्तं वा द्रव्यसामान्यलक्षणम् इति उक्तम्। नमस्कारः, कोऽपि आगतो वा?
आम् महोदय, लक्ष्मी अस्मि, नमस्कारः।
नमस्कारः। अस्तु, तर्हि द्रव्यत्वजातिमत्वं गुणवत्वं वा द्रव्यसामान्यलक्षणम्। इदानीं द्रव्यसामान्यलक्षणं प्रथमं, सर्वत्रैव सामान्यलक्षणमेव भवति। द्रव्यसामान्य नाम सर्वेषां द्रव्याणां, न केवलं पृथिव्याः, न केवलं तेजसः, परन्तु सर्वेषां द्रव्याणां किं लक्षणं, सामान्यलक्षणं किम् अस्ति इति अत्र अस्ति। नमस्कारः, कोऽपि आगतः वा?
अहं सर्वा अस्मि महोदय, क्षम्यतां।
अस्तु, तर्हि इदानीं तत्र प्रथमं तावत् द्रव्यत्वजातिमत्वम् इति उक्तं, तदनन्तरं पुनः गुणवत्वं वा द्रव्यसामान्यलक्षणम् इति उक्तं। तत्र किमर्थं द्रव्यत्वजातिमत्वं पूर्वं वदति, तदनन्तरं समनन्तरमेव गुणवत्वं, द्वितीयं लक्षणं किमर्थं वदति, तत्र अस्ति महान् प्रपञ्चः, तदत्र वयं तस्य चिन्तनं न कुर्मः, केवलं तत्र दिग्दर्शनरूपेण वदामि। तत्र द्रव्यं, द्रव्यत्वं नाम तत्र लक्ष्यतावच्छेदकमेव द्रव्यत्वं, द्रव्यम् इति लक्ष्यवाचकपदकथनेन द्रव्यत्वविशिष्टं द्रव्यज्ञानं जायते इति कृत्वा द्रव्यत्वं लक्ष्यतावच्छेदकं। तर्हि लक्ष्यतावच्छेदकमेव लक्षणम् इति यदा भवति, तत्र अस्ति महान् विवादः। तस्मिन् विषये अत्र वयं न पश्यामः, किञ्चिदिव तत्र अतीव गभीरः विषयः अस्ति, तत्र महान् प्रपञ्चः इति कृत्वा। तदाशयेन एव ग्रन्थकारः इदानीं गुणवत्त्वं द्रव्यवा सामान्य तत्र द्वितीयं लक्षणमपि वदति, तदेव आशयः अत्र अस्मिन् ग्रन्थे तत्सर्वं न निरुक्तं भवतु नाम। तर्हि लक्ष्यैक इदानीं द्रव्यसामान्यलक्षणम् इति उक्तं, परन्तु एतावत्पर्यन्तं लक्षणस्य किं लक्षणं नाम, लक्षणं नाम किम् इति न निरूपितं, न व्याख्यातम्। तर्हि शिष्यशिष्य जिज्ञासा उदेति लक्षणं नाम किम् इति कृत्वा इदानीं लक्षणस्य लक्षणम्। आम्,
एकः प्रश्नः, अत्र द्रव्यत्वजातिमत्वं गुणवत्त्वं वा इति उक्तं, तर्हि दलद्वयम् इति न,
दलद्वयं नास्ति,
पर्यायवाचिशब्दः गुणवत्त्वम् इति, द्रव्यत्वजातिमत्वम् इत्यस्य खलु।
किञ्चिदेव तत्र पर्यायवाचि इति वक्तुं न शक्यते इति मन्ये, परन्तु नाम तत्र भिन्नं लक्षणं, द्रव्यत्वजातिमत्वम् एकं लक्षणं, गुणवत्त्वम् अपरं लक्षणम् इति वक्तुं शक्यते।
अस्तु, धन्यवादः महोदय।
अस्तु, तर्हि द्रव्यसामान्यलक्षणं, तर्हि इदानीं लक्षणं नाम किं? लक्षणस्य लक्षणं न कृतम् इति कृत्वा इदानीं शिष्यजिज्ञासा तत् समनार्थं किं वदति इत्युक्ते, तत्समनार्थं पुनः लक्षणस्य साक्षात् किं लक्षणम् इति वक्तव्यमासीत्, परन्तु तद् अनुक्त्वा लक्षैकादेशवृत्तित्वम् अव्याप्तिः इत्यादिकं किमर्थं वदति इत्युक्ते, अनन्तरं तत्र एतत् सर्वम् उक्त्वैव लक्षणस्य लक्षणं कर्तुं शक्यते. किमर्थम् इत्युक्ते तत्र अनन्तरं वदति एतत् दूषणत्रयरहितो धर्मौ लक्षणम् इति वदति. तर्हि एतत् दूषणत्रयरहित, रहित नाम अत्र अभाव अपरपर्याय, तर्हि एतद् दूषणत्रय अभाव अभाववत् अभाववान् धर्मः लक्षणम् इति. तर्हि दूषणत्रय अभावः इति उक्तम्, तर्हि दूषणत्रय अभाव अभावज्ञानं कदा जायते? यदा प्रतियोगिज्ञानं जायते. अस्माभिः किम् उक्तम् इत्युक्ते प्रतियोगिज्ञानाधीनज्ञानविषयत्वम् अभावस्य लक्षणम् इति पूर्वम् उक्तम्. तर्हि यावत्पर्यन्तं प्रतियोगिनः ज्ञानं न जायते तावत्पर्यन्तम् अभावज्ञानमपि न जायते इति कृत्वा प्रथमं तावत् प्रतियोगिनः प्रतियोगिनां निरूपणं करोति. के ते प्रतियोगिनः इत्युक्ते अव्याप्ति अतिव्याप्ति असम्भवः, एते प्रतियोगिनः. अतः एव अव्याप्तिः लक्षणम् अस्माभिः पूर्वं दृष्टम्. अत्र दीपिकाग्रन्थे लक्षैकदेशावृत्तित्वम् अव्याप्तिः इति अस्माभिः उक्तमासीत्. तर्हि शीघ्रमेव पुनः पुनस्मरणरूपेण वदामि, तत्र अस्माभिः नैयायिकरीत्या किञ्चिदिव भिन्नलक्षणं दृष्टं. लक्षितावच्छेदकसमानाधिकरण अत्यन्त अभावप्रतियोगित्वमेव तत्र अव्याप्तिः इति अस्माभिः उक्तम्. तत्र लक्षणसमन्वयस्य प्रकारः कः इत्युक्ते, तत्र कपिलत्वं नाम कपिलरूपवत्वं. यदि गोः लक्षणं कृतमस्ति चेत् तत्र अव्याप्तिदोषग्रस्तं लक्षणम् एतत् कपिलरूपवत्वम् अव्याप्तिदोषग्रस्तं. यदि अव्याप्तिदोषग्रस्तम् इति वदामः चेत् तत्र लक्षणसमन्वयः स्यात्. लक्षणं किम् इत्युक्ते लक्षतावच्छेदकसमानाधिकरण अत्यन्त अभावप्रतियोगित्वं. तर्हि लक्षतावच्छेदकसमानाधिकरण अत्यन्त अभावप्रतियोगित्वं कपिलरूपवत्वे भवेत् तदा एव लक्षणसमन्वयः भवति. तर्हि इदानीं पश्यामः लक्ष्यागौः तदेकदेशश्वेतगौः गोत्वं नाम तत्र गोत्वस्य अधिकरणं, श्वेतगौः लक्षतावच्छेदकस्य अधिकरणं, गोत्वं लक्षतावच्छेदकं तस्य अधिकरणम् अस्ति श्वेतगौः. तद्वृत्ति अत्यन्त अभावः कपिलरूपवत्व अभावः नाम श्वेतगदि वर्तमान अभावः कपिलरूपवत्व अभावः, कपिलरूपवत्व अभावः श्वेतगवि वर्तते एव. तर्हि तस्य अभावस्य प्रतियोगित्वं कपिलरूपवत्वे अस्ति इति कृत्वा लक्षतावच्छेदकसमानाधिकरण अत्यन्त अभावप्रतियोगित्वं कपिलरूपवत्वे अस्ति इति कृत्वा तत्र अव्याप्तिदोषग्रस्तम् इदं लक्षणम् एतावत्पर्यन्तम् अस्माभिः दृष्टमासीत् गतवर्गे. इदानीं पुनः अग्रे सरामः. तत्र ग्रन्थे किमस्ति इत्युक्ते तत्र द्वादशे कूटे तत्र प्रथममासीत् व्याप्तिः यथा गोः कपिलत्वम् इति अस्ति तावत्पर्यन्तम् अस्माभिः दृष्टम्. तदनन्तरमस्ति अलक्ष्यवृत्तित्वम् अतिव्याप्तिः यथा गोः शृङ्गित्वम्. इदानीं पुनः तत्र सामान्यरूपेण यथा अस्माभिः तत्र विद्याधरी ग्रन्थे तत्र दृष्टमासीत् तया एव रीत्या इदानीम् अलक्ष्यवृत्तित्वम् अतिव्याप्तिः वदति. उदाहरणं किम् इत्युक्ते गोः लक्षणं यदि कोऽपि शृङ्गित्वं गोः लक्षणं वदति चेत् तत् लक्षणम् अतिव्याप्तिदोषदुष्टम्, अतिव्याप्तिदोषग्रस्तं तत् लक्षणम् इति वदति. इदानीं पुनः यथा पूर्वम् अस्माभिः किञ्चित् भिन्नरीत्या दृष्टं लक्षतावश्यकसमानाधिकरण अत्यन्त अभावप्रतियोगित्वम् अव्याप्तिः यथा उक्तं तया एव रीत्या नैयायिकरीत्या अतिव्याप्तेः लक्षणं किं भवति इत्युक्ते तत्र लक्षतावच्छेदकसमानाधिकरणे सति लक्षतावच्छेदकावच्छिन्नप्रतियोगिताकभेदसामानाधिकरण्यम् इति किञ्चिदिव परिशीलयामः. तत्र दलद्वयमस्ति लक्षतावच्छेदकसमानाधिकरणे सति सामानाधिकरण्ये सति नाम लक्षतावच्छेदकसामानाधिकरण्ये सति इति सत्यन्तं तेन किम् आयाति इत्युक्ते तत्र लक्ष्यवृत्तित्वं स्यात् तस्य. इदानीं कस्य अस्माभिः लक्षणम् इदानीं कस्य लक्षणस्य परिशीलनं परिशीलयामः किम् इत्युक्ते अतिव्याप्ति दोषस्य परिशीलनम् इदानीं शृङ्गित्वं यथा उक्तं शृङ्गित्वं लक्षणं कोऽपि वदति भोः गोः लक्षणम् अस्ति शृङ्गित्वं वयं जानीमः शृङ्गित्वं तत्र अतिव्याप्तिदोषग्रस्तं लक्षणं कुतः इति चेत् सामान्यरूपेण पूर्वं पश्यामः कुतः इति चेत् तत्र लक्ष्यवृत्तित्वं शृङ्गित्वस्य अस्ति नाम तत्र गवि गोषु शृङ्गित्वं भवति एव गवां शृङ्गः भवत्येव शृङ्गं तर्हि लक्ष्यवृत्तित्वम् अस्ति लक्ष्यवृत्तित्वं नाम किं लक्ष्यवृत्तित्वं नाम लक्ष्यतावच्छेदकसामानाधिकरण्यं लक्ष्यतावच्छेदकं गोत्वं गोत्वस्य अधिकरणं गौः गवि शृङ्गमस्ति गोः शृङ्गमस्ति इति कृत्वा लक्ष्यतावच्छेदकसामानाधिकरण्यं शृङ्गित्वे वर्तते नाम शृङ्गित्वं लक्ष्याधिकरणे वर्तते इति नाम लक्ष्यतावच्छेदकाधिकरणे वर्तते इति वर्तते नाम लक्ष्यतावच्छेदकाधिकरणं लक्ष्यतावच्छेदकं गोत्वं तस्य गोत्वस्य अधिकरणं गौः तस्मिन्नेव अधिकरणे तत्र शृङ्गमपि वर्तते इति कृत्वा लक्ष्यतावच्छेदकसामानाधिकरण्यं तत्र शृङ्गित्वे आगतं परन्तु तावत् मात्रं न पर्याप्तं तावत् तत्र केवलं विशेषणदलसार्थक्यम् एतावत् पर्यन्तम् इदानीं विशेष्यदलं किम् इत्युक्ते लक्ष्यतावच्छेदकावच्छिन्न प्रतियोगिताकभेदसामानाधिकरण्यम् इति तत्र विशेष्यदलम् इदानीं पश्यामः तस्य विशेष्यदलस्य को वा अर्थः लक्ष्यतावच्छेदकावच्छिन्न प्रतियोगिताकभेदसामानाधिकरण्यम् इति उक्तम् इदानीं खण्डशः पश्यामः लक्ष्यतावच्छेदकं नाम गोत्वं लक्ष्यतावच्छेदकावच्छिन्न नाम किम् अत्र लक्ष्यतावच्छेदकं गोत्वं तर्हि लक्ष्यतावच्छेदकावच्छिन्न इति कथनात् किं लभ्यते किं ज्ञायते कोऽपि वक्तुमिच्छति वा
गौः एव
गौः नाम अत्र आशयः कः इत्युक्ते सकलगौः इति आशयः तत्र न केवलं कोऽपि वदति लक्ष्यतावच्छेदकावच्छिन्न इत्युक्ते श्वेतागौः इति कोऽपि वदति चेत् तत् न सम्यक् लक्ष्यतावच्छेदकावच्छिन्नं तत्र कथनेन किं भवति इति सकलगौः इति तस्य एतस्य वाक्यस्य आशयः तर्हि नाम गौः गोसामान्यम् इति अस्ति विशेषरूपेण केवलं श्वेतगौः अथवा तत्र नाम कपिलगौः अत्र विशेष न परन्तु सामान्यमेव अस्य आशयः गोसामान्य तर्हि अत्र लक्ष्यतावच्छेदकावच्छिन्न नाम गौः इति न श्वेतगौः न कपिलागौः परन्तु गौः इति सामान्यम् अस्तु तर्हि लक्ष्यतावच्छेदकावच्छिन्न प्रतियोगिताकभेदः इदानीम् उक्तं तर्हि लक्ष्यतावच्छेदकावच्छिन्न इति कथ तत्र अपरपर्याय अस्ति गौः तर्हि इदानीं लक्ष्यतावच्छेदकावच्छिन्न इति पदस्य स्थाने गौः इति वयं स्थापयामः तर्हि अत्र किम् आयाति तत्र गोप्रतियोगिताकभेदसामानाधिकरण्यम् इति आयाति गोप्रतियोगिताकभेदः कीदृशः भेदः गोप्रतियोगिताकः भेदः कीदृशः भेदः इत्युक्ते गौर्नः गौर्न इति भेदः नाम महिषः गौः न महिषः गौः न गौः न इति भेदः कुत्र वर्तते गोभेदः कुत्र वर्तते महिषः गौः नः इति वदामः चेत् गौभेदः कुत्र वर्तते इत्युक्ते तत्र तत्र महिषी एव वर्तते खलु तत्र तत् अवगतं खलु तत्र गौः न इति भेदः कुत्रापि भवति तत्र अश्वेपि भवति गौः न इति भेदः अन्यत्रापि भवति तत्र गवयेपि भवति गौः न इति भेदः तर्हि भेदस्य अधिकरणं महिषादि भेदस्य अधिकरणम् अश्वादि भेदस्य अधिकरणं तत्र गवयादि गौर्न इति भेदस्य अधिकरणं तस्मिन् अधिकरणे वर्तमानत्वम् एव भेदसामानाधिकरण्यम्। अस्तु, इदानीं पुनः पश्यामः लक्ष्यतावच्छेदकावच्छिन्ननामगौः गौ प्रतियोगिताकभेदसामानाधिकरण्यम् इत्युक्ते गौः न इति वेद यस्मिन् अधिकरणे वर्तते तस्मिन् एव अधिकरणे वर्तमानत्वम् अतिव्याप्तिदोषस्य लक्षणम्। पुनः अत्र इदानीं तत्र समुदितार्थः, तत्र समुदितवाक्यार्थः कः इत्युक्ते लक्ष्यतावच्छेदकस्य अधिकरणे वर्तमानत्वम् अपि भवेत्, तत्र लक्ष्यभेदाधिकरणे वर्तमानत्वम् अपि भवेत्। लक्ष्य केवलं तत्र सामान्यरूपेण लक्ष्यभेदाधिकरणे वर्तमानं वक्तुं न शक्यते, सकललक्ष्ये विद्यमानं विद्यमाना या प्रतियोगिता तत् प्रतियोगितानिरूपकभेद अधिकरणवर्तमानत्वम् इति अत्र आशयः। नाम लक्ष्यतावच्छेदकावच्छिन्न नाम सकलगौ सकलगवी वर्तमाना या प्रतियोगिता तादृशप्रतियोगितानिरूपकभेद यत् अधिकरणं भेदवत् यद् अधिकरणं तस्मिन् अधिकरणे वर्तमानत्वम् इति अर्थः। अस्तु, तर्हि इदानीं शृङ्गित्वे कथं तत् तत्र समन्वेति इत्युक्ते तत्र लक्ष्यतावच्छेदकसमानाधिकरण्ये सति इति उक्तं, तर्हि पूर्वमेव अस्माभिः दृष्टं शृङ्गित्वे लक्ष्यतावच्छेदकसमानाधिकरण्यं वर्तते एव। कुतः इति चेत् तत्र तत्र गोत्वस्य अधिकरणे गवी शृङ्गं वर्तते, तर्हि शृङ्गित्वं तत्र अस्ति एव। शृङ्गित्वनामकः धर्मः नाम शृङ्गित्वं नाम शृङ्गमेव इति अर्थः, पुनः तद्वत्त्वं तदेव शृङ्गं गवी वर्तते इति अर्थः। तर्हि तत्र शृङ्गित्वे नाम शृङ्गे लक्ष्यतावच्छेदकसमानाधिकरणं वर्तते। पुनः तत्र इदानीं विशेषणदले समन्वयः, इदानीं विशेष्यदले कथं समन्वयः इत्युक्ते लक्ष्यतावच्छेदकावच्छिन्नप्रतियोगिताकभेदः कः इत्युक्ते गौः न इति भेदः, तादृशभेदस्य अधिकरणं गवयः अथवा अश्व यत्किमपि भवतु तस्मिन् अधिकरणे अपि शृङ्गित्वम् अस्ति, शृङ्गम् अस्ति इति कृत्वा तत्र इदानीं विशेष्यदले अपि तत्र समन्वयः। तर्हि द्वयोः दलयोः समन्वयात् तत्र शृङ्गित्वे अतिव्याप्तिलक्षणस्य समन्वयः जातः। तर्हि तेन किम् आयातम् इत्युक्ते शृङ्गित्वं नाम तत्र अतिव्याप्तिदोषदुष्टम् इति आयाति। अस्तु, इदानीं तत्र किञ्चिदिव पश्यामः। इदानीं कः वदति अत्र रत्ना भगिनी किञ्चित् वक्तुम् इच्छति वा अत्र लक्ष्यतावत्, इदानीम् अहं शनैः वदामि तत्र लक्षणं किमस्ति इत्युक्ते तत्र लक्ष्यतावच्छेदकसामानाधिकरण्ये सति लक्ष्यतावच्छेदकावच्छिन्न प्रतियोगितात् भेदसामानाधिकरण्यम् इति अतिव्याप्तेः लक्षणं। तर्हि अस्य लक्षणस्य समन्वयः शृङ्गित्वे कथम् इति वक्तुम् इच्छति वा?
अस्तु, प्रयत्नं करोमि महोदय। अत्र गौः इति स्वीकृतम् उदाहरणं, गौः गोत्वम् अस्ति तत् वयं जानीमः, गौः शृङ्गित्वमपि अस्ति, गोत्वम् इदानीं लक्ष्यतावच्छेदकम् इति स्वीकृतम्। लक्ष्यतावच्छेदकं कुत्र अस्ति? गौः अस्ति, तस्मिन्नेव शृङ्गित्वमपि अस्ति।
लक्ष्यतावच्छेदकिन्न
गौः अस्ति,
सत्यं, प्रतियोगिताकभेद, इदानीं गोप्रतियोगिताकभेद इति वक्तव्यम्।
हा, गोप्रतियोगिताकभेदः अस्ति इत्युक्ते गौः न इति, यथा महिषः, गौप्रतियोगिताकभेदः कुत्र अस्ति इत्युक्ते उदाहरणं महिषेषु वर्तते। तत् पर्यन्तम् अवगतं मया।
तर्हि भेदः तत्र भेदः महिषादौ वर्तते, यदा महिषादौ नाम तत्र महिषि अश्वे गवयेषु वा सर्वत्र अन्यत्र अस्ति, अत्र गोभिन्नेषु वर्तते, तर्हि तस्मिन्नेव अधिकरणे पुनः श्रृङ्गित्वमपि वर्तते।
अतः अतिव्याप्तिदोषः भवति,
तर्हि इदानीं किम् आयातं? प्रथमं तत्र प्रथमं लक्ष्यतावच्छेदकसामानाधिकरण्यम् इति समन्वितं श्रृङ्गित्वे, इदानीं तत्र लक्ष्यतावच्छेदकावच्छिन्नप्रतियोगिताकभेदस्यापि सामानाधिकरण्यं, तत्र सामानाधिकरण्यं द्वयं, सामानाधिकरण्यं द्वयं, प्रथमं सामानाधिकरण्यमासीत् लक्ष्यतावच्छेदकसमानाधिकरण्यं, लक्ष्यतावच्छेदकेन सह सामानाधिकरण्यं, द्वितीयं सामानाधिकरण्यम् अस्ति लक्ष्यतावच्छेदकावच्छिन्नप्रतियोगिताकभेदेन सह सामानाधिकरण्यं, द्वयोः सामानाधिकरण्यम् अस्ति चेदेव तत्र अतिव्याप्तिदोषदुष्टं लक्षणम् इति वक्तुं शक्यते। अस्तु सम्यक्, इदानीं तत्र लक्ष्मी भगिनी पुनः एतदेव पुनः एकवारं वदति वा?
आम् महोदय, लक्ष्यता अवच्छेदक, लक्ष्यता अवच्छेदकः इत्युक्ते अत्र गोत्वं गौः गोत्वमपि अस्ति, अस्माकं लक्षणमस्ति शृङ्गित्वं, शृङ्गित्वं गौः द्वयोः अपि गौः अस्ति, लक्ष्यता अवच्छेदकसामानाधिकरण्ये तति इदानीं शृङ्गित्वं, शृङ्गित्वं लक्ष्यता भिन्न, लक्ष्यता भिन्न, यदा महिषी इति स्वीकुर्मः चेत् महिषी, महिषीणामपि शृङ्गित्वम् अस्ति, अतः लक्ष्यता भिन्न अवच्छेदक
सत्यम्, इदानीं किञ्चिदेव सत्यमेव, सत्यं सम्यकेव उक्तं, तत्र अवगतमिति मन्ये, नाम तत्र महिषि किं वर्तते, महिषादौ किं वर्तते इत्युक्ते तत्र प्रथमं सामानाधिकरण्यम् इव अपि वर्तते, द्वितीयं सामानाधिकरण्यं नाम महिषादौ न शृङ्गित्वे इति वक्तव्यं, तर्हि शृङ्गित्वे किम् अस्ति इत्युक्ते प्रथमं सामानाधिकरण्यमपि वर्तते, नाम तत्र लक्ष्ये लक्ष्यतावच्छेदकसामानाधिकरण्यमपि वर्तते, नाम गोत्वसामानाधिकरण्यं, नाम गोत्वं शृङ्गित्वम् एकस्मिन्नेव अधिकरणे वर्तेते इति अपि वयं पश्यामः, कुत्र इत्युक्ते गवि, पुनः तत्र द्वितीयं सामानाधिकरण्यं महिषादौ दृश्यते, महिषादौ किम् अस्ति इत्युक्ते तत्र भेदः अपि वर्तते शृङ्गित्वमपि वर्तते, भेदः अपि वर्तते शृङ्गित्वमपि एकस्मिन् अधिकरणे स्तः, कीदृशः भेदः नाम न यत्किञ्चित् भेदः परन्तु विशेषभेदः, कीदृशः भेदः इत्युक्ते लक्ष्यतावच्छेदकावच्छिन्नप्रतियोगिताकभेदः, लक्ष्यतावच्छेदकावच्छिन्न इत्युक्ते गौः, तर्हि गोप्रतियोगिताकभेदः नाम गौः न इति भेदः अपि महिषादौ वर्तते, शृङ्गित्वमपि महिषादौ वर्तते, इत्युक्ते शृङ्गित्वे सामानादिकरण्यद्वयम् आगतम् इति कृत्वा अतिव्याप्तिदोषदुष्टम्। अस्तु, एकवारं पुनः पश्यामः, अत्र निरञ्जनमहोदय पुनः एकवारं वदति वा?
हा, प्रयत्नं करोमि महोदय। तत्र दलद्वयम् अस्ति, अतिव्याप्तेः दलद्वयम् अस्ति, लक्ष्यता अवच्छेदकसामानाधिकरण्ये सति लक्ष्यता अवच्छेदकावच्छिन्न प्रतियोगिताकभेदसामानाधिकरण्यम् इति, तत्र प्रथमं प्रथमदले लक्ष्यतावच्छेदकसामानाधिकरण्ये, अत्र गौः इति स्वीकृतं गोत्वं तत्र अवच्छेदकः भवति, लक्ष्यतावच्छेदकः भवति, शृङ्गित्वं शृङ्ग सर्वे तत्र गौः शृङ्गः इति कृत्वा सर्वे गौः शृङ्गः अस्ति इति कृत्वा तत्र यत्र लक्ष्यता अवच्छेदकसामानाधिकरण्यम् अस्ति, अतिव्याप्ति इत्युक्ते यत्र गोत्वमस्ति तत्र शृङ्गत्वमपि भवेत्, तत् प्रथमदलम् अस्ति, तत् तदनन्तरं लक्ष्यता अवच्छेदका अवच्छिन्नप्रतियोगिता खभेदसामानादिकरण्यं यत्र गोत्वं तत्र द्वितीयदले यत्र गोत्वं नास्ति तत्रापि यदि शृङ्गत्वम् अस्ति चेत् अतिव्याप्तिदोषः भवति. अत्र महिषी इति उदाहरणं स्वीकृतं, तदपि तत्रापि
सत्यमेव सत्यमेव. गोत्वं नास्ति इति अभिप्रायः सम्यक् एव, तत्र तदेव अत्र कथं वदति इत्युक्ते तत्र गोभेदः यत्र वर्तते.
आम्
गोभेदः, तर्हि गोभेदः कथं वदन्ति नैयायिकाः इत्युक्ते लक्ष्यतावश्यकः नाम गोभेदः इत्युक्ते सकलगवि विद्यमानः भेदः अत्र अभिप्रेतः. तर्हि सकल गोषु विद्यमानः तत्र प्रतियोगिताः भेदः इति कथनार्थं किं वदन्ति इत्युक्ते तत्र साकल्यं कथं सङ्गृहीतं भवति इत्युक्ते लक्ष्यतावच्छेदकावच्छिन्न इति कथनेन तदायाति.
केवलम् एकम् एकं गोः न
सकलगौसमूहः.
धन्यवादः.
अस्तु, तर्हि तत्र इदानीम् अवगतम् इति मन्ये. तत्र सामानाधिकरण्यं द्वयम् अपेक्षितं. प्रथमं तर्हि तत्र लक्ष्यतावच्छेदकसामानाधिकरण्यं, द्वितीयं तत्र लक्ष्यतावच्छेदकावच्छिन्न प्रतियोगिताकभेदसामानाधिकरणं द्वयं तत्र अपेक्षितम्. अस्तु, तर्हि इदानीं द्वितीयमपि अस्माभिः दृष्टम्. इदानीं तृतीयं, तत्र ग्रन्थे किं वदति इत्युक्ते तत्र लक्ष्यमात्रा अवर्तनम् असम्भवः यथा गोः एकसफवत्वम् इति वदति. इदानीम् अस्माभिः पूर्वं यदि एतत् दृष्टमेव लक्ष्यमात्र अवर्तनम् असम्भवः, तत्र अस्माभिः पूर्वं मात्रम् इति पदस्य को वा अर्थः इत्युक्ते तत्र नाम तत्र निखिलं निखिललक्ष्ये इति अर्थः, नाम कार्त्स्न्यम् इति अर्थः, कार्त्स्न्यं पूर्णरूपेण लक्ष्ये कुत्रापि लक्ष्ये तत्र वर्तनं नास्ति, सर्वत्र लक्ष्ये अवर्तनमेव. नाम तत्र लक्ष्य तत्र कुत्रापि लक्ष्ये न भवति इति अर्थः, लक्ष्यनिश्च अधिकरणता निरूपित आधेयता नास्ति इति अर्थः. तथैव यथा गुः एकसफवत्वं, गवि एकसफवत्वं नास्ति एव कुत्रापि, न श्वेतगवि अस्ति, न कपिला गवि अस्ति, कुत्रापि नास्ति. तत्र गोसामान्ये एव एकसफवत्वं नास्ति इति कृत्वा, कार्त्स्न्येन तत्र कुत्रापि गविः नास्ति इति कृत्वा तत्र असम्भवः तत्र न भवति. तर्हि तत्तदेव तत्र नैयायिकाः किञ्चिदिव भिन्नरूपेण यथा पूर्वम् अस्माभिः दृष्टं किञ्चिदिव भिन्नरूपेण किं वदन्ति इत्युक्ते लक्ष्यतावच्छेदकव्यापकीभूत अभावप्रतियोगित्वम् इति वदन्ति. तत्र नाम असम्भवदोषस्य लक्षणं किं कुर्वन्ति इत्युक्ते लक्ष्यतावच्छेदकव्यापकीभूत अभावप्रतियोगि, नाम पूर्वं किम् आसीत् लक्ष्यतावच्छेदकसामानाधिकरण्यमपि अपेक्षितमासीत् अतिव्याप्तिदोषस्य लक्षणे, परन्तु इदानीं तत्र न इष्टमेव, तत्तत् विपरीतम्. इदानीं कुत्रापि लक्ष्ये न भवेत् इत्युक्ते लक्ष्यव्यापकीभूत यः अभावः, लक्ष्यव्यापकीभूत अभावः इत्युक्ते तत्र सर्वोपि तत्र लक्ष्यम् अभावव्याप्यं, तर्हि तादृश अभावस्य प्रतियोगित्वम् अस्ति चेत् तद्भवति असम्भवदोषस्य लक्षणं. तर्हि लक्षणस्य समन्वयप्रकारः कः इत्युक्ते तत्र कोऽपि वदति भोः तत्र गोः लक्षणं किम् इति कोऽपि पृच्छति, उत्तरं कोऽपि वदति एकसफवत्वं गोः लक्षणं कोऽपि वदति इदानीं. तर्हि इदानीम् अस्माभिः परिशीलनं करणीयम् एकसफवत्वं गोः लक्षणं भवति वा न वा, न भवति कथम् इत्युक्ते तत्र दोषदुष्टं, कीदृशदोषदुष्टम् इत्युक्ते असम्भवदोषदुष्टं. तर्हि असम्भवदोषदुष्टम् इति उक्तं, परन्तु इदानीम् असम्भवदोषस्य लक्षणं किं तत्र समन्वयः करणीयः. तर्हि असम्भवदोषस्य लक्षणं किम् इत्युक्ते लक्ष्यतावच्छेदकव्यापकीभूत अभावप्रतियोगित्वम् इति असम्भवदोषस्य लक्षणं. तर्हि एकसफवत्वे लक्ष्यतावच्छेदकव्यापकीभूत अभावप्रतियोगित्वं भवेत् तदा एव लक्षणस्य समन्वयः भवति. तर्हि तत्र वयं जानीमः एकसफवत्वं नाम कुत्रापि तत्र गोषु न वर्तते, तत्र किमस्ति इत्युक्ते एकसफवत्व अभावः एव अस्ति. एकसफवत्व अभावः सर्वत्र गवीषु गोषु वर्तते, नाम यत्र यत्र गोत्वं तत्र तत्र एकसफवत्व अभावः। अत्र अस्माकं व्याप्तेः स्वरूपं कथं भवति, तत्र प्रथमम् उक्तमासीत् खलु, नाम तत्र कुमारीलवट्टस्य तत्र सम्यक् कथनमस्ति, व्याप्यस्य कथनं पूर्वं व्यापकस्य ततः परं, व्याप्तेः कथनं यदा भवति सर्वदैव तत्र व्याप्यस्य कथनं पूर्वं तस्मिन् वाक्ये पूर्वापर्यं, पूर्वापर्यं कथं स्थापनीयम् इत्युक्ते पूर्वं व्याप्यं तदनन्तरं व्यापकं, व्याप्यस्य कथनं पूर्वं व्यापकस्य ततः परम्, एवं परीक्षिता व्याप्तिः स्फुटी भवति तत्त्वतः इति वदति। तर्हि अस्माभिः एकसहवत्वं यत्र यत्र गोत्वं, यदि अस्माभिः गोत्वं व्याप्यरूपेण अभिप्रेतं, तर्हि व्याप्यरूपेण अभिप्रेतं गोत्वम् अस्ति इति कृत्वा गोत्वस्य कथनं पूर्वं भवति तस्मिन् वाक्ये, यत्र यत्र गोत्वं तत्र तत्र एकसफवत्व अभावः, एकसफव अभावः व्यापकः इति कृत्वा तत्र अनन्तरं तस्य तत्र तत्र उपन्यासः नाम तत्र विन्यासः। तर्हि यत्र यत्र गोत्वं तत्र तत्र एकसफवत्व अभावः, तादृशकथनेन किं लभ्यते इत्युक्ते एकसफवत्व अभावः गोत्व व्यापक अभावः। अस्माभिः किम् उक्तमासीत्, लक्षतावच्छेदकव्यापकीभूत अभावप्रतियोगित्वम् इति उक्तमासीत्, इदानीम् अस्माभिः एकसफवत्व अभावः गोत्वव्यापकीभूत अभावः इदानीं दृष्टं, तादृश अभावस्य प्रतियोगित्वं कुत्र अस्ति इत्युक्ते एकसफवत्वे अस्ति। तादृश वयं सरलमेव स्पष्टमेव, एकसफवत्व अभावस्य प्रतियोगी कः इत्युक्ते एकसफवत्वमेव। तर्हि तादृश तत्र लक्षतावच्छेदकव्यापकीभूत एकसफवत्व अभावस्य प्रतियोगित्वम् एकसफवत्वे अस्ति इति कृत्वा एकसफवत्वं तत्र असम्भवदोषदुष्टम् इति उक्तम्। तर्हि असम्भवदोषदुष्टम् एकसफवत्वम् अस्तु। तर्हि इदानीं पुनः किञ्चित् शीघ्रं, तर्हि अत्र रक्षा भगिनी वदति वा, तत्र असम्भवदोषस्य अत्र एकसफवत्वे कथं लक्षणसमन्वयः, तत्र वाक्यमस्ति लक्षतावच्छेदकव्यापकीभूत अभावप्रतियोगित्वम् इति असम्भवदोषस्य लक्षणम्।
अस्तु अस्तु, तर्हि असम्भवदोषः इत्यस्य लक्षणं यथा महोदयेन उक्तं लक्षतावच्छेदकव्यापकीभूत अभावप्रतियोगित्वम् इति, अत्र लक्षता अवच्छेदकः तु गोत्वम् इति, लक्षता अवच्छेदकगोत्वमस्ति व्याप्यं, तद्व्यापकीभूताभावः अस्ति एकशपत्वाभावः, तस्य अभावस्य प्रतियोगी एकशपवत्वमेव, तर्हि लक्षता अवच्छेदकव्यापकीभूताभावप्रतियोगित्वं कुत्र अस्ति इति चेत् एकशपत्वे अस्ति इति कृत्वा
लक्षणसमन्वयः तत्र दोषः। इदानीं तत्र किम् उक्तमासीत् इत्युक्ते एतत् दूषणत्रयरहितो धर्मो लक्षणम् इति उक्तमासीत्। इदानीम् अपि तेषां तत्र त्रयाणाम् अपि इदानीम् अस्माभिः स्वरूपं कीदृशम् इति आलोचितं, नाम प्रतियोगिनाम् इदानीं ज्ञानं जातम्, प्रतियोगिनां ज्ञानं जातम् इति कृत्वा इदानीं प्रतियोगिनां तत्र अभावज्ञानं जायते। अतः एतत् दूषणत्रयरहितो धर्मो लक्षणं यथा गोः शासनादिमत्वं स एव असाधारणधर्म इत्युच्यते। तदनन्तरं किं वदति इत्युक्ते किं नाम इदानीम् असाधारणधर्म, स एव असाधारण नाम दूषणत्रयरहितो धर्मो लक्षणम् इति उक्तम्। अत्रापि किञ्चिदिव समस्या अस्ति, शीघ्रमेव पश्यामः, किञ्चिदिव तत्र स्पष्टं वक्तव्यमस्ति। इदानीम् अत्र लक्षतावत् इदानीम् असाधारणधर्मः इति उच्यते, प्रकारान्तरेण वदति दूषणत्रयरहितत्वं नाम असाधारणत्वम्, अपरपर्याय पुनः तत्र भिन्नरीत्या दूषणत्रयराहित्यस्य एव इदानीं निरूपणं कथं करोति इत्युक्ते लक्षतावश्यकसमनीयकत्वम् असाधारणत्वम् इति। परन्तु तत्पूर्वं तत्र एतत् दूषणत्रयरहितो धर्मो लक्षणम् इति उक्तम्, दूषणत्रयरहितो धर्मो लक्षणम्। तर्हि इदानीं पश्यामः गोः कपिलत्वं लक्षणम् इति उक्तमस्ति चेत् किमुक्तम् इत्युक्ते गोः कपिलत्वं लक्षणम् इति उक्तम्। तर्हि गोः कपिल कपिलत्वं लक्षणम् इति कथनेन तत्र अस्माभिः पूर्वं दृष्टमासीत् तत्र अव्याप्तिदोषदुष्टम् इदं लक्षणम् इति अस्माभिः पूर्वं दृष्टमासीत् अव्याप्तिदोषदुष्टं परन्तु अस्मिन् लक्षणे अस्मिन् नाम कपिलत्वे लक्षणं नाम तत्र इदानीमेव उक्तम् असाधारणधर्मलक्षणं भवतु नाम तत्र लक्षणम् उक्तमस्ति कपिलत्वम् अस्माभिः दृष्टं कपिलत्वे अव्याप्तिदोषः अस्ति परन्तु इदानीम् एतत् दूषणत्रयरहितो धर्मो लक्षणम् इति कथनात् किं तस्य लक्षणे सङ्ग्रहो भवति वा नाम कपिलत्वस्य लक्षणे सङ्ग्रहो भवति वा दुष्ट नाम अलक्षणे सङ्ग्रहः भवति वा इति प्रश्नः एतत् दूषणत्रयरहितो धर्मो लक्षणम् इदानीं कपिलत्वम् अस्ति कपिलत्वे वयं जानीमः अव्याप्तिदोषः अस्ति अव्याप्तिदोषः अस्ति तत्र कपिलत्वे परन्तु तत्र अतिव्याप्तिः नाम असम्भवदोषः अस्ति वा तत्र कपिलत्वे असम्भवदोषः असम्भवः दोषः अस्ति वा नास्ति एव कुतः इति चेत् कपिलत्वं तत्र लक्ष्यवृत्तित्वम् अस्ति एव कपिलत्वस्य नाम तत्र द्वत्वाधिकरणे तत्र तत्र कपिलगवि कपिलत्वम् अस्ति एव तर्हि असम्भवदोषदुष्टम् एतत् लक्षणं नास्ति तर्हि अस्माभिः पूर्वं किम् उक्तमासीत् किमुक्तमासीत् नाम तत्र समूहस्य अभावः इदानीं यदा उच्यते तत्र दूषणत्रय एकः दोषः अस्ति एकदोषः अस्ति चेदपि अत्र अतिव्याप्तिदोषः अस्ति एकः दोषः अस्ति चेदपि तत्र दोषत्रयम् अस्ति इति वक्तुं शक्यते वा तत्र किं चिन्तनं
न महोदय
तत्र अस्ति समस्या तत्र अस्माभिः किम् आसीत् इत्युक्ते दृष्टमासीत् पूर्वम् एकं सत्त्वेति द्वयं नास्ति इति अस्माभिः पूर्वं दृष्टमासीत् एकं सत्त्वेति अव्याप्तिदोषसत्त्वेति तत्र त्रयं नास्ति तर्हि इदानीं किं जातं दोषत्रयराहित्यं कपिलत्वे आगतं वा न वा एकं सत्त्वेपि त्रयं नास्ति एकं सत्त्वेपि द्वयं नास्ति तर्हि अत्र किञ्चित् समस्या अस्ति तर्हि अत्र आशयः कः इत्युक्ते समूहस्य अभावः न अभिप्रेतः नाम अव्याप्ति अतिव्याप्ति असम्भवदोषसमूहस्य अभावः न अभिप्रेतः तत्र अभावसमूहः अभिप्रेतः समूहस्य अभावः किञ्चित् चिन्तनं कुर्वन्तु अनन्तरं किञ्चिदिव तत्र सूक्ष्मं चिन्तनं करणीयं परन्तु अस्माभिः बहुवारम् एतत् दृष्टम् इति कृत्वा तत्र स्पष्टमेव स्यात् तत्र समूहस्य अभावः न इष्टः अभावसमूहः इष्टः इति चिन्तनं करणीयं तत्र ग्रन्थेषु तत् सर्वमपि निरूपितं वर्तते कदाचित् तत्र पठनावसरे शङ्कादिकं जायते सन्देहः जायते इति कृत्वा वदामि अभावसमूहः समूहस्य अभावः न अभिप्रेतः कः अभिप्रेतः इत्युक्ते अभावसमूहः अभिप्रेतः इति नाम अतिव्याप्ति दोषः अपि दोषस्यापि अभावो स्यात् असम्भवदोषस्यापि अभावो स्यात् अव्याप्तिदोषस्यापि अभावः तत्र अभावः स्यात् तर्हि अभावस्य समूहः तत्र स्यात् समूहस्य अभावः न अभावस्य समूहः तत्र स्यात् इति अर्थः भवति नाम अस्तु इदानीं किं वदति इत्युक्ते एव असाधारणत्वं नाम किं यदा गोः शासनादिमत्वं लक्षणम् इति उक्तम् अत्र दूषणत्रयं नास्ति अतिव्याप्तिदोषोऽपि नास्ति कुतः तत्र अव्याप्तिदोषोऽपि नास्ति कुतः इति चेत् तत्र किमस्ति लक्ष्यतावश्यकसामानादिकरणम् अत्यन्त अभावप्रतियोगित्वं नास्ति कुतः इति चेत् कुत्रापि तत्र गोषु शृङ्गित्वस्य अवृत्तित्वं नास्ति नाम शृङ्गित्वे नाम शासनादिमत्वस्य अवृत्तित्वं नास्ति शासनादिमत्वस्य वृत्तित्वं लक्ष्ये अस्ति इति कृत्वा तत्र असम्भवदोषस्यापि निवारणं तत्र गोभेद अधिकरणे शासनादिमत्वं नास्ति एव, तत्र महिषादौ शासनादिमत्वं नास्ति एव, तर्हि भेदाधिकरणे लक्ष्यतावच्छेदकावच्छिन्नभेदाधिकरणे शासनादिमत्वं नास्ति इति कृत्वा अतिव्याप्तितो सोऽपि नास्ति, अतः तत्र दूषणत्रयरहितो धर्मः, नाम त्रयाणां दूषणानां तत्र अभावः अस्ति, अभावसमूहः तत्र वर्तते इति कृत्वा तत्र शासनादिमत्वं गोः लक्षणं भवति। इदानीं तत्र असाधारणधर्मः किञ्चिदिव तत्र विवरणं कर्तुं तत्र चिकित्सा अस्ति ग्रन्थकारस्य, नाम साधारणधर्मस्यापि नाम अत्र वदति, नाम स एव तादृशः तादृशं लक्षणं तादृशः धर्मः एव दूषणत्रयरहितधर्मः एव ग्रन्थेषु असाधारणधर्मः इति उच्यते इति वदति। इदानीम् असाधारणं नाम किम् इति विवरणं करोति, तत्र वदति लक्ष्यतावच्छेद किं वदति इत्युक्ते लक्ष्यतावच्छेदकसमनीयतत्वम् असाधारणत्वम् इति वदति। लक्ष्यतावच्छेदकसमनीयतत्वं नाम अत्र समव्याप्तिः इति अर्थः, समव्याप्तिः, अधिकवृत्तित्वमपि नास्ति, न्यूनवृत्तित्वम् अपि नास्ति, समानवृत्तित्वम् अस्ति लक्ष्यतावच्छेदकमत्र। इदानीं पश्यामः तदेव शासनादिमत्वमेव स्वीकुर्मः, शासनादिमत्वं लक्ष्यतावच्छेदकसमनीयतधर्मः इति अर्थः, शासनादिमत्वं लक्ष्यतावच्छेदकसमनीयतः धर्मः। समनीयतः धर्म इति कथनात् कः अर्थः लभ्यते इत्युक्ते लक्ष्यतावच्छेदक अन्यूनवृत्तित्वं, लक्ष्यतावच्छेदक अनतिरिक्तवृत्तित्वं, नाम तत्र लक्ष्यभिन्ने अपि न वर्तते, सर्वत्र लक्ष्ये वर्तते इति अर्थः, लक्ष्यता समान तत्र समव्याप्तिः। तदेव भिन्नरीत्या कथं वदन्ति इत्युक्ते तत्र लक्ष्यतावच्छेदकसमन्वयतत्वम् असाधारणत्वं, लक्ष्यतावच्छेदव्यापकत्वे सति लक्ष्यतावच्छेदकव्याप्यत्वम् इति वदन्ति। लक्ष्यतावच्छेदकसमन्वयतत्वम् अस्माभिः सामान्यरूपेण उक्तं, किम् उक्तम् इत्युक्ते समव्याप्तिः, सर्वत्र यत्र लक्ष्यतावच्छेदकम् अस्ति तत्र सर्वत्र भवति, यत्र लक्ष्यतावच्छेदकं न भवति तत्र नैव भवति इति अस्माभिः सामान्यस्वशब्दैः उक्तं, परन्तु नैयायिकाः तदेव तमेव अभिप्रेतम् अर्थं कथं निरूपयन्ति इत्युक्ते लक्ष्यतावच्छेदकं लक्ष्यतावच्छेदकव्यापकत्वे सति लक्ष्यतावच्छेदकव्याप्यत्वं, व्यापकत्वे सति व्याप्यत्वम् इति तथा समन्वयतत्वस्य लक्षणं कुर्वन्ति, निरूपणं कुर्वन्ति, नाम तत्र लक्ष्यतावच्छेदकव्यापकत्वे सति तस्य को वा अर्थः इत्युक्ते यत्र यत्र लक्ष्यतावच्छेदकं वर्तते तत्र तत्र सर्वत्र वर्तमानत्वम् अस्ति तत्र तस्मिन् धर्मे, यः धर्मः समन्वयत यस्य धर्मस्य समन्वयत्वम् अभिप्रेतं तस्मिन् समन्वयतरूपेण अभिप्रेते धर्मे कीदृशः धर्मः भवेत् इत्युक्ते लक्ष्यतावच्छेदकं यत्र यत्र वर्तते तत्र तत्र सर्वत्र वर्तमानत्वरूपः धर्मः तत्र भवेत्, तदेव लक्ष्यतावच्छेदकव्यापकत्वम् इति वर्तते। व्यापकत्वं नाम किं, वयम् अस्माभिः पूर्वमेव दृष्टं व्यापकत्वं यत्र यत्र इदानीं तत्र धूमस्य चिन्तनं कुर्मः, यत्र यत्र धूमः तत्र तत्र बह्निः, धूमः व्याप्यं बह्निः व्यापकं, तदेव अत्र लक्ष्यतावच्छेदकव्यापकत्वे सति इत्युक्ते अत्र व्यापकं समन्वयतः धर्मः व्यापकत्वेन अभिप्रेतः इत्युक्ते यत्र यत्र लक्ष्यतावच्छेदकं लक्ष्यतावच्छेदकं व्याप्यं व्याप्यरूपेण अभिप्रेतः, तर्हि यत्र यत्र व्याप्यं लक्ष्यतावच्छेदकं तत्र तत्र व्यापकं समन्वयत असाधारणधर्मः तत्र तत्र वर्तमानत्वमेव तस्य समन्वयत्वम् इति अर्थः। द्वितीयं लक्ष्यतावच्छेदकव्याप्यत्वं, तर्हि लक्ष्यतावच्छेदव्याप्यत्वं नाम किम् इत्युक्ते तत्र लक्ष्यतावच्छेदकं यत्र नास्ति तत्र अवर्तमानत्वम्, अनतिरिक्तवृत्तित्वं, लक्ष्यतावच्छेदकं यत्र नास्ति तत्र अवर्तमानत्वं, तर्हि शासनादिमत्वे तादृशः धर्मः अस्ति वा न, समनयत्यम् अस्माभिः भिन्नरूपेण दूषणत्रयराहित्यं शासनादिमत्वे दृष्टम्, इदानीं शासनादिमत्वे यत् असाधारणत्वस्य लक्षणं लक्ष्यतावच्छेदकसमनीयतत्वम् उक्तं तस्य समन्वयः शासनाधिमत्वे भवति वा न वा इति इदानीं द्रष्टव्यं। तर्हि इदानीं लक्ष्यतावत्सितकं किमस्ति, अत्र लक्ष्या गौः, तर्हि शासनाधिमत्वं गौः लक्षणं कृतम्। इदानीं वयं वदामः शासनाधिमत्वम् असाधारणधर्मः, असाधारणधर्मः शासनाधिमत्वम् अस्ति इति कृत्वा शासनाधिमत्वं गोः लक्षणम्, असाधारणधर्मो लक्षणम् इति उक्तं, शासनाधिमत्वम् असाधारणधर्मो अस्ति इति कृत्वा शासनाधिमत्वं गोः लक्षणं। तर्हि इदानीं समन्वयः करणीयः, लक्ष्यतावच्छेदकसमन्वयतत्वस्य तत्र निरूपणं कृतमासीत्, लक्ष्यतावच्छेदकव्यापकत्वे सति लक्ष्यतावच्छेदकव्याप्यत्वम् इति कृतमासीत्। तर्हि अत्र कथं समन्वयः इत्युक्ते, लक्ष्या गौः, लक्ष्यतावच्छेदकं गोत्वं, तर्हि इदानीं तत्र प्रथमं यद् उक्तमासीत् लक्ष्यतावच्छेदकव्यापकत्वे सति, तर्हि अत्र शासनाधिमत्वे व्यापकत्वम् अस्ति वा, शासनाधिमत्वे लक्ष्यतावच्छेदकव्यापकत्वम् अस्ति वा, नाम यत्र यत्र तत्र गोत्वं, गोत्वं कुत्र भवति, गोव्यक्तौ भवति, यत्र यत्र गोव्यक्तौ गोत्वं तत्र तत्र शासनाधिमत्वं वयं जानीमः एव, तर्हि लक्ष्यतावच्छेदकव्यापकत्वं तत्र आगतं। तर्हि लक्ष्यतावच्छेदकव्याप्यत्वं किम् आसीत्, नाम यत्र यत्र लक्ष्यतावच्छेदकं नास्ति तत्र तत्र शासनाधिमत्वस्य अवर्तमानत्वं। तर्हि यत्र यत्र गोत्वं नास्ति कुत्र, महिषादौ, यत्र यत्र गोत्वं नास्ति महिषादौ तत्र तत्र शासनाधिमत्वमपि नास्ति, अतः व्याप्यत्वमपि आगतम्। तर्हि शासनाधिमत्वं गोः लक्षणं भवति कुतः इति चेत् असाधारणत्वम् अस्ति, असाधारणत्वस्य को वा अर्थः इत्युक्ते लक्ष्यतावच्छेदकसमन्वयतत्वम् असाधारणत्वं, तस्य पुनः तत्र विवरणं किं कृतम् इत्युक्ते लक्ष्यतावच्छेदकव्यापकत्वे सति लक्ष्यतावच्छेदकव्याप्यत्वम् इति कृतम्। अस्तु, इदानीं तत्र किञ्चिदिव आन्द्रेयमहोदय किञ्चिदिव अस्य विवरणं करोति वा, तत्र समन्वयतत्वं लक्ष्यतावच्छेदकसमन्वयतत्वं यदुक्तं तस्य स्वरूपं लक्ष्यतावच्छेदकव्यापकत्वे सति लक्ष्यतावच्छेदकव्याप्यत्वं यदुक्तं तस्य समन्वयः शासनाधिमत्वे भवति वा न वा, तस्य समन्वयस्य प्रकारः कः इति वक्तुमिच्छति वा
भो? परन्तु इतः प्राक् कश्चन प्रश्नः वर्तते, इदानीं व्यापकत्वे सति इति उक्तं चेत् तर्हि व्याप्यत्वं किमर्थं वक्तव्यम्? यदि गोत्वं शासनाधिमत्वं यदि व्यापकत्वेन अस्माभिः सिद्धं तर्हि गोत्वं स्वयम् एव व्याप्यम् इति सिद्ध्यति न वा?
तत्र किमर्थं तद् व्यापकत्वे सति व्याप्यत्वं किमर्थम् उक्तम् इति प्रश्नः खलु, किमर्थं तत्र यदि आं तत्र नाम तत्र व्यापकत्वं नाम कदाचित् किं भवति इत्युक्ते अधिकदेशवृत्तित्वं व्यापकत्वं भवति।
ओ तथा
खलु, अत्र अत्र अभिप्रेतः अर्थः इत्युक्ते समानदेशवृत्तित्वं आम् एवं साधनीयम् एवम्।
आम् बुद्धम्। ओके भवतु, तर्हि इदानीं यदुक्तं भवद्भिः लक्ष्यतावच्छेदक व्यापकत्वे सति लक्ष्यतावच्छेदकव्याप्यत्वम् इति लक्षणस्य लक्षणं सामान्यलक्षणं, तर्हि लक्ष्यतावच्छेदकं गोत्वं यत् तस्य व्यापकत्वे सचि तथा तस्य सस्नादि व्यापकं किं सस्नादिमत्वं यत्र गोत्वं तत्र तत्र सस्नादिमत्वम् इति अस्मिन् अस्यां व्याप्तौ सिद्धायां तर्हि लक्ष्यतावच्छेदकव्याप्यत्वम् इति द्वितीयं दलं तत्र हरितम् आक्षिप्तं, नाम तस्याः एव व्याप्त्याः सिद्धये एतद् द्वितीयं दलम् आहृतं, नाम यत्र यत्र गोत्वम् एव अथवा यत्र यत्र गोत्वं तत् नास्ति, यत्र यत्र गोत्वं नास्ति तत्र तत्र साधिमत्वं
नास्ति।
एवमेव अवगतम्,
अस्तु, सम्यक् अस्ति, अस्तु, धन्यवादः महोदय। इदानीं तत्र सन्ध्या भगिनी एतदेव एकवारं वदति वा?
आं महोदय, तत्र लक्ष्यतावच्छेदकव्यापकत्वे सति लक्ष्यतावच्छेदकव्याप्यत्वम् असाधारणत्वस्य लक्षणम्, असाधारणत्वं किम् इति. तर्हि अत्र तत्र लक्ष्य गौः तत्र लक्ष्यतावच्छेदकम् अवच्छेदकत्वं गोत्वे इति. तर्हि तस्य व्यापकत्वम् इति यत्र यत्र गोत्वं तत्र तत्र सास्नादिमत्वम् इति, यदि असाधारणत्वं सास्नादिमत्वे अस्ति इति स्वीकुर्मः, तर्हि यत्र यत्र गोत्वम् अस्ति तत्र तत्र सास्नादिमत्वम् अस्ति इति कृत्वा तत्र व्यापकत्वम् अस्ति. इदानीं व्यापकत्वे सति तत्र लक्ष्यतावच्छेदकव्याप्यत्वम् इति, तत्र यत्र यत्र लक्ष्यतावच्छेदकत्वं नास्ति इत्युक्ते यत्र यत्र गोत्वं नास्ति तत्र तत्र शासनादिमत्वं नास्ति इति कृत्वा लक्ष्यतावच्छेदकव्याप्यत्वम् अपि आगतम्. तर्हि व्यापकत्वे सति व्याप्यत्वम् इति इदानीं साधितमस्ति, तदेव असाधारणत्वम् इति.
आं सत्यमेव, सत्यमेव, अस्तु, सम्यक् अस्ति. आं सरला भगिनी अपि एकवारं वदति वा कथम् अत्र समन्वयः?
आं महोदय, लक्षता अवच्छेदक भवति गोत्वे, तस्य अधिकरणं गौ अस्ति. एतत् लक्षकता अवच्छेदक व्यापके व्यापकी भूत्वा यदि शासनत्वम् इति वदामः तत् सर्वे गौषु तस्य विद्यमानत्वं भवति, तस्य विद्यमानत्वं भूत्वा व्यापकत्वस्य यत्र यत्र व्यापकत्वं नास्ति तत्र
यत्र
शासनार्थं नास्ति तत्र व्याप्यत्वं गौत्वम् अपि नास्ति. यथा महेषु तत्र शासनार्थं नास्ति तत्र एतत् न भवति,
किञ्चिदिव तत्र किञ्चिदिव तत्र व्यत्यासः जातः, परन्तु सम्यकेव अस्ति. नाम प्रथमं तत्र लक्ष्यतावच्छेदकं गोत्वं, तर्हि गोत्वस्य व्यापकत्वं तत्र शासनादिमत्वे भवेत्. तर्हि यत्र यत्र गोत्वं तत्र तत्र शासनादिमत्वं भवति चेत् व्यापकत्वं तत्र सिद्ध्यति. पुनः व्याप्यत्वम् इत्युक्ते नाम तत्र शासनादिमत्वस्य शासनादिमत्वम् एव व्याप्यं
भवेत्.
तर्हि तत् कथं वक्तव्यम् इत्युक्ते लक्ष्यतावच्छेदकं गोत्वं यत्र नास्ति तत्र शासनादिमत्वमपि नास्ति इति. एवं सत्यमेव, अस्तु, सम्यक् एव अस्ति. अस्तु, इदानीं किञ्चिदिव पुनः सूक्ष्मं परिशीलनम् आवश्यकम्. इदानीं तत्र किं वदति इत्युक्ते
प्रश्नः अत्र व्याप्यः कः व्यापकः कः इति केवलं
आमां सत्यमेव सत्यम् अत्र इत्युक्ते अत्र तत्र व्यत्यासः अस्ति. लक्ष्यतावच्छेदकव्यापकम् अस्ति शासनादिमत्वं, लक्ष्यतावच्छेदकव्याप्यम् अपि अस्ति शासनादिमत्वं. शासनादिमत्वं व्यापकम् अपि व्याप्यमपि, तथैव लक्ष्यतावच्छेदकमपि व्यापकमपि व्याप्यमपि. किमर्थम् एवं कृतम् इत्युक्ते तत्र तत्र समताप्रदर्शनार्थं, द्वयोः अपि तत्र अनतिरिक्तत्वम् अस्ति, अन्यूनदेशवृत्तित्वम् अस्ति, समानदेशवृत्तित्वम् अस्ति इति प्रदर्शनार्थं व्यापकत्वे सति व्याप्यत्वम् इति उक्तं. तत् स्पष्टमस्ति वा भगिनि?
आम्, मम प्रश्नः आसीत् यथा इच्छा व्याप्यः कः व्यापकः कः इति स्वीकर्तुं शक्नुमः खलु अत्र?
आम्, सत्यमेव, अत्र व्यापकः इदानीं प्रथमं तत्र दलद्वयम् अस्ति, इदानीं भागद्वयम् अस्ति. लक्ष्यतावच्छेदकव्यापकत्वे सति इति पूर्वम् उक्तं खलु, तत्र व्याप्यव्यापकभागः कः इति प्रश्नः. तत्र अस्ति लक्ष्यतावच्छेदकं व्याप्यं ग्राह्णादिमत्वं व्यापकं तत्र. द्वितीयभागः अस्ति लक्ष्यतावच्छेदकव्याप्यत्वं, नाम अत्र तृतीयभागे लक्ष्यतावच्छेदकं व्यापकं, शासनादिमत्वं व्याप्यं. तर्हि तथा व्याप्यत्वे सति व्यापकत्वम् इति वक्तुं शक्यते एव, तथा एव भवत्याः अभिप्रायः खलु? आमां तत्तद् वक्तुं शक्यते.
महोदय प्रश्नः,
असम्भवदोषः
अतिरिक्तः इति दृश्यते खलु, यत्र अतिव्याप्ति प्रदर्श्यते अथवा अपि च अव्याप्तिः प्रदर्श्यते तत्र असम्भवदोषः न आगच्छति एव, किमर्थं तत् योजितं तत्र?
नाम पुनः पृच्छतु भगिनि एकवारम्.
अतिव्याप्तिः इत्युक्ते लक्ष्ये अस्ति अपि च लक्ष्ये लक्ष्यस्य बहिः अपि अस्ति, अव्याप्ति इत्युक्ते लक्ष्ये एकवृत्तित्वम् अस्ति इत्युक्ते एकदेशवृत्तित्वम् अस्ति, एतयोः एव पर्याप्तं भवति खलु, असम्भवदोषः किमर्थं योजितम्?
आम् तत्र नाम अहम् इदानीं यत् मया अवगतं भवत्याः प्रश्नः अस्ति तत्र असम्भवदोषः अस्ति वा न वा इति प्रश्नः खलु. नाम नाम तत्र तत्र अतिव्याप्ति इत्युक्ते लक्ष्यवृत्तित्वम् अस्ति एव
सत्यं,
तर्हि अव्याप्ति इत्युक्ते अपि लक्ष्यवृत्तित्वम् अस्ति एव
सत्यं
खलु, परन्तु असम्भव इत्युक्ते किं
लक्ष्ये किमपि लक्ष्ये न भवति एव अवृत्तित्वं
सकलस्य अवृत्तित्वं खलु. तर्हि
सत्यं
नाम तर्हि तत्र अलक्ष्य तत्र अतिव्याप्ति यदि वदामः तर्हि तस्य सम्यक् रूपेण तत्र असम्भव एव आशयः भवति वा? कुतः इति चेत् तत्र पूर्णरूपेण अत्र अविद्यमानत्वं तत्र अतिव्याप्तौ नास्ति.
सत्यं
तर्हि अत्र कश्चन विषयः अस्ति, किं वदन्ति इत्युक्ते तत्र कदाचित् नाम तत्र असम्भवः यः दोषः तत्र अलक्ष्यवृत्तित्वम् अस्ति, अतिव्याप्तेः अपि अलक्ष्यवृत्तित्वम् अस्ति, तर्हि कदाचित् द्वयोः अपि तद् तत्र सामान्यमेव अस्ति वा इति प्रश्नः कदाचित् उदेति, तत्र सामान्यं नास्ति एव, कुतः चेत् अतिव्याप्ति इत्युक्ते लक्ष्यवृत्तित्वं भवेत् एव.
सत्यं
तत् सम्यक् स्पष्टमस्ति वा भगिनि, तत्र प्रश्नस्य उत्तरम् आगतं वा?
प्रश्नस्य उत्तरं न प्राप्तं महोदय. इत्युक्ते यत्र अतिव्याप्तिदोषः निवारणीयः अपि च अव्याप्तिदोषः निवारणीयः, तावदेव पर्याप्तम् इति मम मनसि, असम्भवदोषः अपि निवारणीयः वा, एतद्वयोः एव पर्याप्तम्?
तत्र तत्र किम् अस्ति इत्युक्ते तत्र तत्र द्वाभ्यामपि पर्याप्तं न भवति, कुतः इति चेत् तत्र इदानीं तत्र कदाचित् एवं भवति तत्र अलक्ष्यवृत्तित्वम् इदानीं वदामि एकसफवत्वं गोः लक्षणम् इति उक्तं खलु, तर्हि तत्र कीदृशः दोषः अस्ति तत्र?
असम्भवदोषः खलु.
हा अस्तु, तर्हि असम्भवदोष इति वक्तव्यं खलु, तर्हि असम्भवदोषराय
परन्तु तत्र तत्र अव्याप्तिः प्रथमम् अस्ति खलु
तत्र. इदानीं अव्याप्ति नाम एकदेशे वृत्तित्वं भवेत्.
ओ भवेत् एव वा, अस्तु.
आमां भवेत् एव, तादृश अभिप्रायः. एवं दोषाणां वर्गीकरणं तथा कृतं, लक्ष्यवृत्तित्वम् आवश्यकमेव. कुतः इति चेत् तत्र लक्ष्यतावच्छेदकसमानाधिकरण अत्यन्त अभावप्रतियोगित्वम् इति उक्तं, तर्हि लक्ष्यवृत्तित्वम् आवश्यकमेव, तर्हि तथा अस्ति.
अस्तु महोदय, यत्र लक्षणपरीक्षा भवति तत्र दोषण त्रयस्य अपि निवारणं भवतु, परन्तु यत्र अव्याप्ति अतिव्याप्ति पर्याप्तं भवति तत्र असम्भवः न भवति एव, इत्युक्ते समव्याप्तिः यत्र अस्ति यथा इदानीमेव दृष्टं तत्र असम्भवस्य परीक्षा एव नास्ति करणीयः खलु.
अत्र तत्रैव तत्र अत्र भिन्नरूपेण परीक्षा कृता, अत्र तु व्याप्यत्वे सति व्यापकत्वम् इति किञ्चिदिव भिन्नरूपेण एतदेव पुनः तत्र दोषणत्रय राहित्यम् अस्ति वा न वा इति परिशीलनमपि एवमपि अस्माभिः कृतमेव. शासनादिमध्ये दोषत्रय राहित्यम् अस्ति वा न वा इति भिन्नरूपेण चिन्तनं कृतं, तदपि कृतम्. अत्र तत् तन्नावश्यकम्, अत्र भिन्नरीत्या कृतम् इति तत्तु सत्यं.
सत्यं, धन्यवादः.
अस्तु, पुनः कदाचित् किं भवति इत्युक्ते तत्र अतिव्याप्ति, तत्र लक्षणं किं भवति इत्युक्ते कपिलत्वम् इत्युक्ते तर्हि अव्याप्तिदोषग्रस्तमपि भवति, तर्हि अतिव्याप्तिदोषग्रस्तमपि भवति. यदि कपिलत्वं नाम कदाचित् नैयायिकानां तत्र चिन्तनद्वयं वर्तते. कपिलत्वं केचन नैयायिकाः वदन्ति तत्र गोषु एव कपिलत्वं वर्तते, तत्र गवि वर्तमान कश्चन विशेषधर्मः कपिलत्वम् इति केचन नैयायिकाः वदन्ति. केचन नैयायिकाः वदन्ति भोः तादृशः किमपि नास्ति तादृशं, तत्र गो इतरप्राणिषु अपि भवति कपिलत्वं. तर्हि गो इतरप्राणिषु कपिलत्वं भवति चेत् तर्हि अत्र किं भवति, तत्र द्वयोः दोषयोः समावेशः भवति अत्र कपिलत्वे. तत्र अव्याप्ति अपि अस्ति, कुतः इति चेत् लक्ष्यता वर्तते, तत्र अत्यन्तभावप्रतियोगित्वम् अस्ति, तत्र लक्ष्यैकदेश अवृत्तित्वमपि अस्ति, लक्ष्यभिन्नवृत्तित्वमपि अस्ति अत्र, खलु. तर्हि अतिव्याप्ति अव्याप्तिद्वयोः अत्र समावेशः अस्ति इति कृत्वा अत्र कोऽपि तत्र विशेषसमस्या अस्ति वा इति प्रश्नः कदाचित् ते कुर्वन्ति. तस्य परिहारः कथं क्रियते इत्युक्ते सत्यमेव, तर्हि दोष तत्र दुष्टसङ्करेऽपि दोषसङ्करो नास्ति, दोषस्तु दोषद्वयम् अस्ति एव. एकस्मिन् तत्र धर्मे द्वयोः समावेशः अस्ति इति कृत्वा द्वयोः दोषयोः ऐक्यम् इति वक्तुं तु न शक्यते इति कदाचित् वदन्ति, परन्तु एतत् किञ्चिदिव अत्र अत्र न परिशीलयामः. तत्र केवलं दिग्दर्शनरूपेण वदामि, तत्र दुष्टसङ्करेऽपि दोषसङ्करो नास्ति, साङ्कर्यं नास्ति इति कदाचित् वदति भवतः. अस्तु, इदानीं किञ्चिदिव सूक्ष्मं पश्यामः. व्यावर्तकस्यैव लक्षणत्वे व्यावृत्तौ अविधेयत्वादौ सतिव्याप्तिवारणाय तत् भिन्नत्वं धर्मविशेषणं देयम् इति वदति. इदानीं नाम व्यावर्तकस्यैव लक्षणत्वे व्यावृत्तावविधेयत्वादौ, नाम व्यावृत्तौ अविधेयत्वादौ स अतिव्याप्तिवारणाय तत् भिन्नत्वं धर्मविशेषणं देयम्. नाम अत्र प्रथमं किम् उक्तमासीत् इत्युक्ते लक्षतावच्छेदसमन्वयतत्वम् इति उक्तमासीत्. इदानीं किं वदति इत्युक्ते तत्र नाम व्यावृत्ति अविधेय व्यावृत्ति अविधेय भिन्नत्वम् अपि तत्र निवेशनीयं, नत्र नाम व्यावृत्तिभिन्नत्वे सति अविधेयत्वभिन्नत्वे सति लक्षतावच्छेदसमन्वयतत्वम् असाधारणत्वम् इति इदानीं वदति. किमर्थम् इदं वदति इति किञ्चित् पश्यामः. प्रथमं तर्हि अत्र व्यावर्तकं नाम किं, व्यावृत्तिः नाम किम्, अविधेयत्वं नाम किम्, इदानीं चिन्तनं तस्य चिन्तनम् आवश्यकं भवति. इदानीं सूक्ष्मं तत्र किञ्चिदिव अस्ति. व्यावृत्तिः नाम किम् इत्युक्ते तत्र भवतां मनसि कः अर्थः अस्ति, व्यावृत्ति इति वदामः चेत् कः अर्थः मनसि तत्र झटिति आयाति? पुनः वदतु भगिनि,
इति वा
विशेष्यः किञ्चित् भिन्न एव अर्थः अस्ति तस्य.
व्यावर्तकः इति विशेषणम् इव.
आमाम् आम्, विशेषणं सर्वदा व्यावर्तयति, सत्यमेव. व्यावृत्ति अत्र व्यावर्तकं नाम किञ्चिदिव अत्र पारिभाषिकरूपेण तत्र प्रयुक्तं पदमस्ति अत्र, अत्र पारिभाषिकं पदं किम् अस्ति इत्युक्ते व्यावृत्ति नाम इतरभेदः, इतरभेदः एव व्यावृत्तिः इति चिन्तनम् अस्ति. तर्हि व्यावर्तकं नाम इतरभेद अनुमापकम् इति, इतरभेद अनुमापकं व्यावर्तकम् इतरभेदः व्यावृत्तिः इति. इदानीं पश्यामः तत्र नैयायिकानां चिन्तनमस्ति. केचन नैयायिकाः किं वदन्ति इत्युक्ते, केवलं लक्षतावच्छेदकसमन्वयतत्त्वम् इति तत्र लक्षणस्य लक्षणं नास्ति. किमर्थं नास्ति इत्युक्ते, लक्षणस्य कश्चन विशेषप्रयोजनं वर्तते. तादृशप्रयोजनवत् एव लक्षणं भवति. लक्षणस्य प्रयोजनं किम् इत्युक्ते, व्यावर्तकत्वं लक्षणस्य प्रयोजनम् इति वदति. व्यावर्तकत्वं नाम इतरभेदानुमापकत्वम् एव व्यावर्तकत्वं. तर्हि नाम अत्र पश्यामः, उदाहरणं गोः शासनादिमत्वं लक्षणम् इति उक्तं. तर्हि अस्माभिः उक्तं शासनादिमत्वं लक्षणं. तत्र किं शासनादिमत्वे इतरभेद अनुमापकत्वम् अस्ति वा इति प्रश्नः. नाम शासनादिमत्वं व्यावर्तकम् अस्ति वा, नाम शासनादिमत्वे इतरभेद अनुमापकत्वम् अस्ति वा. तर्हि इतरभेद अनुमापकत्वं नाम किम् इत्युक्ते, अस्माभिः पूर्वं न दृष्टम् एव मन्ये, इदानीं न स्मरामि यद् दृष्टं वा न वा. तत्र यदा तत्र अनुमानस्य अध्ययनं कुर्मः तदा अनुमितिः भवति. कीदृशी भवति अनुमितिः इत्युक्ते, तत्र पृथिवी इतरभेदवती गन्धवत्वात् इति तत्र अनुमितेः स्वरूपं भवति. पृथिवी इतरभेदवती गन्धवत्वात्. गन्धवत्वं पृथिव्याः लक्षणम्. इदानीम् अत्र अनुमितिस्थले किं कृतम् इत्युक्ते, पृथिवी इतरभेदवती, इतरभेदः साध्यः, इतरभेदः साध्यम्. अत्र तत्र नाम लिङ्गः कः इत्युक्ते, हेतुः कः इत्युक्ते, गन्धवत्वं हेतुः. गन्धवत्वेन हेतुना इतरभेदः साध्यते. इतरभेदः नाम पृथिवी इतरभेदः. पृथिवी इतरभेदः पृथिव्यां वर्तते इति साध्यते गन्धवत्वेन हेतुना. तर्हि गन्धवत्वस्य लक्षणं स्वीक्रियते. नाम तत्र नाम तत्र लक्षणं स्वीक्रियते इति न अस्ति. नाम तत् तदेव तत्र इतरभेद अनुमापकत्वं तत्र जातं खलु. इतरभेद अनुमापकत्वं यत्र यत्र नाम तत्र पृथिवी इतरभेदवती इति अनुमितिः, इतरभेदः पृथिव्याम् अस्ति इति अनुमितिज्ञानं जायते. लक्षणं पृथिव्याः लक्षणं गन्धवत्वं स्वीकृत्य तादृशं ज्ञानं जायते, अनुमितिज्ञानं. तर्हि इदानीं गन्धवत्वम् इतरभेद अनुमापकं जातं. नाम गन्धवत्वेन हेतुना इतरभेदस्य अनुमितिः भवति, अनुमितिज्ञानं भवति. तादृशः भेद अनुमापकः धर्मः लक्षणं, धर्मः एव लक्षणं. यदि भेदस्य अनुमापकत्वं नास्ति चेत् लक्षणत्वं नास्ति, लक्षणं भवितुं न अर्हति इति आशयः. तर्हि इदानीं शासनादिमत्वे इतरभेद तत्र अनुमापकत्वम् अस्ति वा न वा, अत्र किञ्चित् प्रयत्नं कुर्मः. कोऽपि वक्तुम् इच्छति वा? तत्र शासनादिमत्वे अत्र इतरभेदः नाम तत्र गोभिन्न यत् सर्वं तत् भिन्नं, नाम गवेतरभेदः इति अर्थः, गवेतरभेदः. तर्हि गवेतरभेदस्य अनुमापकत्वं शासनादिमत्वे अस्ति वा? नाम गौः गवेतरभेदवति शासनादिवत्वात्, शासनादिमत्वात् इति वक्तुं शक्यते वा न वा? शक्यते एव, सत्यं. तर्हि शासनादिमत्वं व्यावर्तकं, शासनादिमत्वं व्यावर्तकं, शासनादिमत्वं गवेतरभेद अनुमापकं गवि गवेतरवेद अनुमापकं सास्नादिमत्वम् अस्तु तत् सत्यमेव परन्तु इदानीं किमर्थं तत्र ग्रन्थकारः व्यावर्तकस्यैव लक्षणत्वे व्यावृत्तौ अविधेयत्वादौ च अतिव्याप्तिवारणाय तद्भिन्नत्वं धर्मविशेषणं देयं वदति इत्युक्ते अत्र पश्यामः लक्ष्यतावत्सरिकसमनीयतत्त्वं व्यावृत्तौ अस्ति वा न वा इदानीं पश्यामः व्यावृत्तिः नाम अत्र तत्र गवेतरभेदः गवेतरभेदः व्यावृत्तिः भेदः एव व्यावृत्तिः व्यावर्तकः नाम व्यावर्तकं नाम भेद अनुमापकं व्यावृत्ति नाम भेदः गवेतरभेदः गवि वर्तते गवेतरभेदः गवि वर्तते तदेव व्यावृत्तिः इति पदेनापि उच्यते व्यावृत्तिः नाम गवेतरभेदः तर्हि इदानीं गवेतरभेदः यः तत्र लक्ष्यतावच्छेदकसमन्वयतत्त्वम् अस्ति वा न वा प्रश्नः नाम अस्माभिः लक्षणस्य लक्षणं किम् उक्तमासीत् इत्युक्ते लक्ष्यतावच्छेदकसमन्वयतत्त्वम् एव साधारणत्वं तदेव लक्षणम् इति उक्तमासीत् तर्हि इदानीं तस्य लक्षणस्य समन्वयः व्यावृत्तौ नाम गवेतरभेदे समन्वय भवति वा न वा इत्युक्ते समन्वय भवत्येव किमर्थमिति चेत् तत्र यत्र यत्र लक्ष्यतावच्छेदकं तत्र तत्र गवेतरभेदः अस्माभिः लक्ष्यतावच्छेदकसमन्वयतत्त्वस्य निर्वचनं कथं कृतमासीत् यत्र यत्र लक्ष्यतावच्छेदकम् अस्ति तत्र 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 सः धर्मः अपि भवेत् यत्र यत्र लक्ष्यता अभिच्छेदकं नास्ति तत्र तत्र सः धर्मः न भवेत् इति अस्माकं विवरणम् आसीत् इदानीं व्यावृत्ति नाम गवेतरभेदे अस्य लक्षणस्य समन्वयः भवति वा न वा इत्युक्ते भवत्येव किमर्थम् इत्युक्ते तत्र व्यापकत्वम् अस्ति लक्ष्यतावच्छेदकव्यापकत्वम् अस्ति यत्र यत्र गोत्वं तत्र 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 गवेतरभेदः यत्र यत्र गोत्वं नास्ति तत्र तत्र गवेतरभेदोऽपि नास्ति तर्हि लक्ष्यतावच्छेदकसमन्वयत्वं व्यावृत्तौ नाम गवेतरभेदे आगतं तर्हि लक्षणरूपेण स्वीकारः स्यात् इति नैयायिकाः तत्र नैयायिकदेशी एकदेशिनः नाम केचन नैयायिकाः नैयायिक एकदेशिनः एकदेशिनः इत्युक्ते केचन नैयायिकाः इति अर्थः एकदेशिनः किं वदन्ति इत्युक्ते भोः तथा समन्वयः अस्ति चेदपि लक्ष्यतावच्छेदकसमन्वयतत्त्वम् असाधारणत्वम् इति वाक्यानुसारेण व्यावृत्तौ अस्य लक्षणस्य समन्वयः अस्ति चेदपि लक्षणरूपेण व्यावृत्तिं वयं न स्वीकुर्मः एव किमर्थम् इति चेत् गवेतरभेदस्य तत्र तत्र व्यावर्तकत्वं नास्ति इति अर्थः लक्ष्येतरभेदस्य व्यावर्तकत्वं नास्ति व्यावर्तकत्वं लक्षणस्य प्रयोजनं परन्तु व्यावर्तकत्वं व्यावृत्तौ नास्ति व्यावर्तकत्वं गवेतरभेदे नास्ति इति कृत्वा अत्र लक्षणरूपेण वयं व्यावृत्तिं गवेतरभेदं लक्षणरूपेण न स्वीकुर्मः परन्तु इदानीम् अस्माभिः द्रष्टव्यं किम् अस्ति इत्युक्ते कथं वा नैयायिकः एषः वदति व्यावृत्तौ गवेतरभेद अनुमापकत्वं नास्ति इति कथं वदति इति अस्माभिः द्रष्टव्यम् व्यावृत्तौ नाम गवेतरभेदे गवेतरभेद अनुमापकत्वं कथं नास्ति इति प्रश्नः तर्हि इदानीं पश्यामः यदि अनुमापकत्वं स्यात् यदि गवेतरभेदस्य नाम व्यावृत्तेः अनुमापकत्वं स्यात् तर्हि तद् अनुमानवाक्यं कीदृशं स्यात् इति अस्माकं प्रश्नः पुनः एकवारं यदि व्यावृत्तेः नाम यदि गो इतर गवेतरभेदस्य यदि भेद अनुमापकत्वं स्यात् तर्हि तत्र अनुमानवाक्यं कीदृशं स्यात् इत्युक्ते एवं स्यात् गौः गौः गवेतरभिन्ना गवेतरभेदात् कुतः इति चेत् तत्र अनुमापकत्वम् अस्ति इति इत्युक्ते हेतु हेतुविभक्तिमत्वं तत्र अन्ते गवेतरभेदात् पञ्चमी विभक्ति तर्हि गवेतरभेदः नाम व्यावृत्ति यदि व्यावृत्ति एव अनुमापक नाम व्यावृत्ति एव तत्र हेतुरूपेण प्रयुक्तः अस्ति चेत् तत्र पञ्चमी विभक्ति गवेतरभेदात् तत्र अनुमेयः कः इत्युक्ते पुनः गवेतरभेदः एव अनुमेयः इतरभेदानुमापकत्वम् एव व्यावर्तकत्वम् उक्तमासीत् तर्हि अनुमानवाक्यं कीदृशं भवति इत्युक्ते गौः गवेतरभिन्ना नाम तत्र गवेतरभेदवती इति अर्थः गवेतरभिन्ना इत्युक्ते गवेतरभेदवती गौः हेतुः कः इत्युक्ते गवेतरभेद एव हेतुः गवेतरभेदः एव साध्यं गवेतरभेद एव हेतुः तर्हि साध्यहेतुरैक्यात् इतरभेदानुमिति न भवति कुतः इति चेत् तत्र पूर्वमेव तत्र हेतु एव साध्यं तर्हि इदानीं हेतु एव साध्यमस्ति चेत् तत्र अनुमितिः न भवत्येव अनुमितिः न उदेत्येव अतः एव अत्र वदति व्यावृत्तेः इतरभेदानुमापकत्वं नास्ति कुतः इति चेत् अस्माभिः इदानीमेव दृष्टं तत्र अनुमितिः न उदेत्येव इति कृत्वा यतोहि तत्र नैयायिक एकदेशिनः व्यावर्तकत्वं लक्षणस्य प्रयोजनम् आसीत् इदानीमेव अस्माभिः दृष्टं व्यावर्तकत्वं व्यावृत्तौ नास्ति गवेतरभेदे गवेतरभेदानुमापकत्वं नास्ति इति कृत्वा लक्षणस्य प्रयोजनम् अत्र नास्ति इति कृत्वा अत्र अस्य तत्र लक्ष्यतावच्छेदकसमन्वयतत्वं यदुक्तं तस्य समन्वयः अस्ति अतः अस्य लक्षणस्य परिष्कारः करणीयः यथा अत्र समन्वयः न स्यात् तर्हि परिष्कारः कीदृशः इत्युक्ते तत्र तद्भिन्नत्वं धर्मविशेषणं देयं नाम व्यावृत्तिभिन्नत्वे सति अविधेयत्वभिन्नत्वे सति लक्ष्यतावच्छेदकसमन्वयतत्वम् असाधारणत्वम् एवं वक्तव्यम् इति वदति अस्तु इदानीं पश्यामः किञ्चिदिव स्पष्टमस्ति वा न वा इदानीं कः वदति अत्र सावित्री भगिनी अत्र वक्तुमिच्छति वा
एकः प्रश्नः
आम्
अनुनासकत्वम् इत्युक्ते शासनाधिकत्वं वा
न अनुमापकत्वं नाम तत्र हेतुरूपेण नाम हेतुः भवेत् इति अर्थः हेतुः एव अनुमापकत्वं भवति हेतुः एव अनुमापकः तर्हि हेतुः भवेत् इतरभेद अनुमितिज्ञानस्य हेतुः भवेत् इति अर्थः सावित्री भगिनी अत्र किञ्चिदिव वदति वा प्रयत्नं करोति वा
अस्तु अत्र अवच्छेदकसमनियतत्वम् असाधारणं धर्मम् इति न स्वीकुर्मः इति अत्र लिखितमस्ति व्यावृत्तिः अपि च व्यावर्तकत्वं व्यावृत्तिः इत्युक्ते इतरभेदः यथा अस्मिन् सन्दर्भे गवेः इतरभेदः शास्नादिमत्वम् इति व्यावर्तकत्वम् इत्युक्ते इतरभेद अनुमापकत्वम् अनुमापकं यथा भवतः उदाहरणमासीत् पृथ्वी इतरभेदवती गन्धवत्वात् इत्युक्ते अनुमितिज्ञानं जायते इति अत्र इतरभेदः शास्नादिमत्वम् इति स्वीकुर्मः चेत्
अस्तु
इत्युक्ते गौः गवेतरभेदवती अथवा गौः गवेतरभिन्ना गवेतरभेदात् इति
शासनादिमत्वात् इति वक्तुं प्रथमम् इदानीं सत्यमेव भवतु नाम इदानीं भवत्या इति उक्तं तत् सत्यमेव
इत्युक्ते गौः गवेतरभेदवती गवेतरभेदात् इति आगच्छति तत्र वदति यत् व्यावृत्तौ व्यावृत्तकर्त्वं नास्ति इत्युक्ते अनुमितिज्ञानं न जायते किमर्थं चेत् हेतुः साध्यं द्वयोः समानं भवति तत्र अनुमितिज्ञानं न भवति इति
सत्यमेव बहु सम्यक् अस्ति अस्तु
महोदय एकः प्रश्नः गवेतरभेदः इति यदुक्तं तादृशभेदः न केवलं गवि किन्तु अपरेषु प्राणिषु भवितुम् अर्हति खलु इत्युक्ते
न भगिनि तस्य कः आशयः इत्युक्ते गोभिन्न यत् सर्वं तेषां तद्भिन्नत्वम् इति अर्थः गवेतरभेदः इत्युक्ते गोभिन्न यत्किमपि तेषां तत् भिन्नत्वम् गवेतर इत्युक्ते गोभिन्न गवामन्योन्याभावः न नाम गवेतर इत्युक्ते इदानीं पश्यामः अश्वः भवतु नाम उदाहरणरूपेण अश्वः गवेतरभेदः नाम अश्वभेदः कुत्र अस्ति इत्युक्ते गवि अस्ति
गवि
तर्हि गो इतर यत्किमपि तेषां भेदः कुत्र अस्ति इत्युक्ते केवलं गवि एव भवति खलु
मम प्रश्नः किमर्थम् आगतः चेत् अधुना अश्वाभावः इति यदुक्तं भवता तद् प्रायः शुनके अपि भवितुम् अर्हति तथा
अश्व तत्तु सत्यमेव अश्वः तत् सत्यं तत् केवलं तत्र सामान्यरूपेण उक्तं भवति तत् सत्यमेव इतर इति पदेन तत्र गोभिन्न सर्वोपि तत्र सर्वेषां सङ्ग्रहः
भवति
स्पष्टमस्ति वा
हा तत्स्पष्टं किन्तु अत्र गवेतरभेदः इति न स्वीकृतः किन्तु किमर्थं चेत् हेतोः अपि च साध्यस्य ऐक्यं भवति इति कृत्वा
सत्यं सत्यं कुतः इति चेत् तत्र गवेतरभेदः एव साध्यं गवेतरभेदः एव हेतुः तर्हि साध्यहेतोः ऐक्यं भवति चेत् तत्र अनुमितिज्ञानं न उदेति एव पूर्वमेव ज्ञानं जातम् इति अर्थः
अस्तु महोदय
एवम् अस्तु सम्यक् अस्ति इदानीं पुनः एकवारं पश्यामः तत्र निरञ्जनमहोदय पुनः एकवारं वदति वा अत्र व्यावर्तकस्यैव लक्षणत्वे व्यावृत्तौ अविधेयत्वा अतिव्याप्तिवारणाय तद् भिन्नत्वं धर्मविशेषणं देयम् अत्र अस्य वाक्यस्य को वा अर्थः महोदय अस्ति वा अस्तु तत्र आन्द्रे महोदय अत्र वदति वा व्यावर्तकस्यैव लक्षणत्वे व्यावृत्तौ अविधेयत्वादौ जातिव्याप्तिवारणाय तद्भिन्नत्वं धर्मविशेषणं देयम् अत्र अविधेयत्वं त्यजतु इदानीं तदग्रे पश्यामः इदानीं केवलं व्यावृत्तिमेव स्वीकृत्य अत्र आशयः कति वदति वा नाम अत्र तत्र प्रथमं तावत् लक्षणं अत्र तत्र एतत् त्रय दूषणरहितो धर्मो लक्षणम् इति उक्तं स एव असाधारणधर्म इति उच्यते इति उक्तं तर्हि असाधारणत्वं नाम किम् इत्युक्ते तस्य असाधारणत्वस्य लक्षणं कृतं नाम असाधारणत्वस्य नाम लक्षणस्य लक्षणं कृतं किं कृतम् इत्युक्ते लक्षतावच्छेदकसमन्वयतत्वमेव असाधारणत्वम् इति उक्तं तर्हि असाधारणत्वमेव लक्षणत्वं तर्हि लक्षणं भवति परन्तु इति नैयायिक एकदेशिनः केचन नैयायिकाः वदन्ति भो तावत् मात्रं न पर्याप्तं किमर्थं न पर्याप्तम् इति चेत् यदि भवान् तावन्मात्रं वदति चेत् तस्य लक्षणस्य तस्य वाक्यस्य समन्वयः व्यावृत्तौ भवति परन्तु तन्न इष्टं व्यावृत्तौ भवति तन्न इष्टं किमर्थं न इष्टम् इत्युक्ते लक्षणं यत् सर्वं तस्य व्यावर्तकत्वं प्रयोजनं भवेत् परन्तु व्यावृत्तेः व्यावर्तकत्वं नास्ति नाम व्यावृत्तौ व्यावर्तकत्वं नास्ति व्यावर्तकत्वं नाम इतरभेद अनुमापकत्वम् अत्र अस्मिन् सन्दर्भे गवेतरभेद अनुमापकत्वं तर्हि अत्र व्यावृत्ति नाम गवेतरभेदः तर्हि गवेतरभेदस्य गवेतरभेद अनुमापकत्वं नास्ति. तर्हि अस्य व्यावर्तकत्वं नास्ति, प्रयोजनराहित्यम् अस्ति इति कृत्वा एतत् लक्षणं यत् भवता पूर्वं लक्षतावच्छेदकसमनीतत्वम् उक्तं तावन्मात्रकथनेन व्यावृत्तस्यापि सङ्ग्रहः नाम व्यावृत्तेः अपि सङ्ग्रहः भवति इति कृत्वा भवतः अत्र एतत् वाक्यं तत्र परिष्कारम् अपेक्षते इति वदति. एतत् स्पष्टमस्ति वा?
एतत् स्पष्टमस्ति भोः, परन्तु इदानीं यत् वाक्यम् अत्र आगतं तत् सम्यक् न जानामि.
आमाम् अस्तु अस्तु आमां. तर्हि नाम तत्र पुनः एकवारं पुनः वदामि, नाम तत्र लक्षितावक्षकसमन्वयतत्त्वम् असाधारणत्वम् इति उक्तं. तत्र केचन नैयायिकाः वदन्ति भोः एतावत् तावन्मात्रं न पर्याप्तं. कुतः इति चेत् तत्र यत् लक्षणत्वेन न अभिप्रेतं, लक्षणरूपेण यत् न अभिप्रेतं तस्यापि समन्वयः भवति एतावन्मात्रकथनात्. उदाहरणं किम् इत्युक्ते व्यावृत्ति नाम इतरभेदः, व्यावृत्तिः नाम इतरभेदः, अस्मिन् सन्दर्भे गवेतरभेदः, तस्याः व्यावृत्तेः व्यावर्तकत्वं नास्ति, परन्तु यत् लक्षणं तत् सर्वं व्यावर्तकं भवेत्. यत् लक्षणं तत्सर्वं व्यावर्तकत्वं भवेत् परन्तु व्यावृत्तौ व्यावर्तकत्वं नास्ति, व्यावर्तकत्वं नास्ति परन्तु लक्षणस्य समन्वयः अस्ति. व्यावृत्तौ व्यावर्तकत्वं नास्ति आवश्यकं परन्तु नास्ति, परन्तु एतस्य लक्षणे समन्वयः अस्ति. तर्हि अनिष्टं यत् अनिष्टाया व्यावृत्तिः तस्याः समन्वयलक्षणे अस्ति इति कृत्वा यथा व्यावृत्ति बहिष्कृता भवेत् तथा लक्षणस्य परिष्कारः करणीयः इति वदति. तर्हि किमर्थम् इत्युक्ते व्यावर्तकस्यैव लक्षणत्वे, केचन वदन्ति लक्षणं सर्वदैव व्यावर्तकं भवेत् इति कृत्वा एव अस्य लक्षणस्य अत्र तत्र परिष्कारः करणीयः इति वदति.
परन्तु भो अभिधेयत्वादि इति अनेन किं
तत् पश्यामः, तत् इदानीं चिन्तयामि, तत्र अग्रिमे सप्ताहे पश्यामः. तत्र अस्ति, तत्रापि किञ्चिदेव तत्र चिन्तनं करणीयमस्ति. अभिधेयत्वं केवलान्वयीधर्मः नाम यत् सर्वम् अस्ति अस्मिन् जगति तत् सर्वमपि अभिधेयमेव, अभिधेयं नाम तत्र वक्तुं शक्यते अविधेयम्, अस्माभिः शब्दवाच्यत्वम् अस्ति इति अर्थः, शब्दवाच्यत्वं सर्वस्यापि अस्ति इति अर्थः. उत्पीठिका भवेत् उत्पीठिका वदामः, तत्र सङ्गणकः अस्ति चेत् सङ्गणकः वदामः. तर्हि वयं वक्तुं शक्नुमः, तर्हि पदज्ञानविषयत्वं भवति नाम पदैः तत्र अविधातुं शक्यते, वक्तुं शक्यते इति अर्थः. सर्वत्रापि सर्वेषु अपि अविधेयत्वं वर्तते, यत्किमपि अस्मिन् जगति वर्तते तत् सर्वमपि शब्दैः अविधातुं शक्यम् इति अर्थः. तर्हि अविधेयत्वं सर्वत्रैव वर्तते, तर्हि सर्वत्रैव वर्तते चेत् तस्य धर्मस्य व्यावर्तकत्वं भवति वा? यदि
न भवति
तत् न भवत्येव, तर्हि व्यावर्तकत्वमेव अविधेयत्वादौ नास्ति चेत् किं तत्र अस्माभिः पदार्थस्य सामान्यलक्षणं किम् उक्तमासीत्? ज्ञेयत्वम् अविधेयत्वं पदार्थसामान्यलक्षणम् इति उक्तमासीत्. ज्ञेयत्वम् अविधेयत्वं पदार्थसामान्यलक्षणम्. इदानीं नैयायिकाः वदन्ति भोः लक्षणम् इति कथनेन सर्वत्रैव व्यावर्तकत्वम् आवश्यकम्, इतरवेदस्य ज्ञानम् आवश्यकम्, इतरवेद अनुमापकत्वं भवेत्, परन्तु तत्र अविधेयभिन्नः कोऽपि नास्ति एव. तर्हि अविधेयः भिन्नः कोऽपि नास्ति चेत् अविधेयत्वादौ अविधेयत्वं लक्षणं न भवेत्, अविधेयत्वं लक्षणं न भवेत्. तर्हि परन्तु अविधेयत्वस्य अत्र समन्वयः भवति, अविधेयत्वस्य समन्वयः भवति इति कृत्वा अविधेयत्वभिन्नम् अपि धर्मविशेषणं देयम् इति वदति. परन्तु अत्र समाधानं किम् इत्युक्ते अत्र द्वितीयपक्षः अस्ति, तत्र नैयायिक एकदेशिनः वदन्ति व्यावर्तकस्य लक्षणत्वं परन्तु अन्ये नैयायिकाः वदन्ति भोः न तावन्मात्रम् एवं वक्तव्यं, नाम व्यावृत्तिर्व्यवहारो वा लक्षणस्य प्रयोजनम् इति वदन्ति. न केवलं व्यावर्तकत्वं लक्षणस्य प्रयोजनं, परन्तु व्यवहारोऽपि लक्षणस्य प्रयोजनं. यदि तं लक्षणं स्वीकृत्य यदि वयं व्यवहारं कर्तुं शक्नुमः चेत् तदपि लक्षणरूपेण अभिमतमेव इति तत्र वदन्ति. तत् अग्रिमे सप्ताहे तत्र विस्तरेण पश्यामः. अस्तु, इदानीं तत्र समयोऽपि जातः. नमस्कारः, धन्यवादः, पुनर्मिलामः.
धन्यवादः. धन्यवादः.